इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री भाजपेति दलस्य च वरिष्ठ नेता नरेन्द्र मोदी ह्यः कथितवान् यत् असौ देशस्य सकल विकासाय निर्णयं गृह्णाति। वार्ताभिकरणस्य एकस्मिन् साक्षात्कारे श्रीमोदी 47-2000 यावत् विकसित भारताय स्वीय दृष्टिकोणं प्रख्यापितवान्। प्रधानमन्त्रिणा निगदितं यत् एकं राष्ट्रं एकं निर्वाचनम् इत्येतस्य कार्यान्वयनं तस्य प्रशासनस्यैव वचनबद्धता अस्ति। एतदर्थं पूर्वराष्ट्रपतिनः रामनाथकोविन्दस्य आध्यक्षत्वे निर्मितसमित्यै साकारात्मक परिणामो अपि मिलितः। बिहारराज्ये प्रधानमन्त्री भाजपादलस्य वरिष्ठनेता नरेन्द्रमोदी अद्य एनडीए इत्याख्यस्य दलस्य प्रत्याशिनां समर्थने गया पूर्णिया जनपदयोः द्वे सार्वजनिकोपवेशने सम्बोधयिष्यति। प्रथमः नैर्वाचनिक जनसमागमः गया संसदीय क्षेत्रे भविष्यति, यत्र श्रीमोदी गांधी मैदानस्थले एकां जनसभां सम्बोधयिष्यति। द्वितीया जनसभा पूर्णियायाः रंगभूमि मैदानस्थले भविता। प्रधानमन्त्रिणः कार्यक्रमम् अभिलक्ष्य सर्वसुरक्षासज्जता तत्र जाता। प्रधानमन्त्री नरेन्द्रमोदी अद्य असमराज्ये सायं समये राष्ट्रिय जनतांत्रिक संयुति दलस्य प्रत्याशिभ्यः नैर्वाचनिक प्रचाराभियानं कर्तुं गुवाहाटीनगरं सम्प्राप्स्यति। दलस्रोतानुसारी अद्य गुवाहाट्याः बोझार विमानपत्तनस्थानके प्रधानमन्त्रिणः स्वागतार्थम् अनेके स्थानीय निवासिनः दलकार्यकर्तारश्च उपस्थिताः भविष्यन्ति। श्रीमोदी श्वः नलबाडी नगरे जनसमूहम् एकं सम्बोधयिष्यति। कांग्रेस नेत्री प्रियंका गांधी अद्य जोरहाट नगरे दल प्रत्याशिने गौरव गोगोई इत्यस्मै मार्ग प्रदर्शनी करिष्यति। अपरत्र तृणमूल कांग्रेस दलस्य अध्यक्षा पश्चिम बंगालस्य मुख्यमंत्री ममता बनर्जी अस्मिन् सप्ताहे बराक उपत्यकायां प्रचाराभियानमेकं विधास्यति। असमराज्ये 14 लोकसभासनेभ्यः 3 चरणेषु मतदानं भविष्यति। ह्यः केरलस्य वायनाड जनपदे एकां जनसभां सम्बोधयन् कांग्रेस नेता प्रत्याशी च राहुल गांधी कथितवान् यत् अस्माकं संविधानं एकं वचनमस्ति यत् अस्मज्जनानां विभिन्न परम्पराणां भाषाणां रक्षां करोति, शान्तिस्थापनायै च सुदृढ भूमिकां निर्वहति। भारतीय सैन्यबलस्य दलमेकं भारत उज्बेकिस्तानयोः संयुक्त सैन्य अभ्यासस्य डस्टलीक इत्येतस्य पञ्चमं संस्करणे भागग्रहणाय गतवत्। अभ्यासोऽयम् अस्य मासस्य 15 दिनांकतः 28 दिनांकं यावत् उज्बेकिस्तानदेशस्य टर्मीज इत्यत्र समायोज्यते। रक्षामन्त्रालयानुसारि भारतीय सैन्यबलदले 60 कर्मिणः, अपरत्र उज्बेकिस्तानस्य पक्षतः 100 कर्मिणः प्रतिभागितां करिष्यति। रक्षामन्त्रालयेन प्रोक्तं यत् अस्याः यात्रायाः उद्देश्यमस्ति उभयोर्देशयोः पारस्परिकी सहमतिः स्थापिता स्यात्, द्विपक्षीयः सुरक्षासहयोगश्च सुदृढो भवेदिति। ध्येयं वर्तते यत् डस्टलीक इत्येषः अभ्यासः एकः वार्षिक कार्यक्रमो वर्तते। आईपीएल इत्यस्यां क्रिकेट प्रतिस्पर्धायां ह्यः बेंगलुरुनगरस्य एम चिन्नास्वामी क्रिकेट क्रीडांगणे सनराइजर्स हैदराबाद दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 25 धावनांकैः पराजितम्। इति वार्ताः।